वेदै सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा तानि त्वयि अर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्म वाचां प्रवृत्ति दुर्वर्ज्यं चेदवाप्तं तदपि खलु भवत्यर्पये चिल्प्रकाशे यस्त्वन्यकर्मयोगः तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृशति हृदि मृदि क्वापि वा भावयित्वा पुष्पैर्गन्धैः निवेद्यैरपि च विरचितैः शक्तितो भक्तिभूतैः नित्यं वर्यां सवर्यां विदधत् अयि विभो त्वत्प्रसादं भजेयम् स्त्रीशूद्राः त्वत्कथादिश्रवणविरहिता आसदां ते दयार्हास्त्वत्पादासन्नयातान् द्विजकुलजनुषोहन्द शोचाम्यशान्तान् वृत्त्यर्थं ते यजन्त बहुकथितमपि त्वामनाकर्णयन्त दृप्ता विद्याभिजात्यै किमु न विदधते तादृशं मा कृथा मां पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि भ्राता मे वन्ध्यशीला भजति किल सदा विष्णुम् इत्थं बुधां ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितमतीन् तादृशं मा कृथा मां श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि त्रेतायां सृक्स्रुवाद्याङ्कितमरुणतनुं यज्ञरूपं यजन्ते सेवन्ते तन्त्रमार्गैर्ं विलसदरिगदं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते सोऽयं कालेयकालो जयति मुदरिपो यत्र सङ्कीर्तनाद्यैर्निर्यत्नैरेव मार्गैः अखिलदा न चिरात्त्वत्प्रसादं भजन्ते जातास्त्रेता कृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो वञ्चयास्मान् भक्तास्तावल् कलौ स्युः द्रविणभुवि ततो भूरिश तत्र चोच्चैकावेरीं ताम्रवर्णीम् अनुकिलघृतमालां च पुण्यां प्रतीचीं हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चद्रसं त्वय्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वं निषेवाम् दृष्ट्वा धर्मद्रुहं तं कलिम् अपकरुणं प्राङ्महीक्षिल्परीक्षित् हन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशाल् त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरु यत्तु प्रागेव रोगादिभिः अपहरते तत्र हा शिक्षयैनम् गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिका चन्दनं तल् सालग्रामाभिपूजा परपुरुषा तथैकादशी नामवर्णाः एतान्यष्टाप्ययत्नान्यै कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधु ऋषयस्तेषु मां सद्य एथाः देवऋषीणां पितॄणामपि न पुनर्णीकिङ्करो वा स भूमन् योऽसौ सर्वात्मना त्वां शरणमुपगता सर्वकृत्यानि हित्वा तस्योल्पन्नं विकर्मापि अखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान् పవనపురపతేరుంధి భక్తిం ప్రణీయా.